अभिपालयन्तम् लक्ष्मी सहस्रशतसम्भ्रम सेव्यमानम् गोविन्दमादिपुरुषम् तमहं भजामि हीनं क्वनन्तमरविन्ददलयताक्षम् वरहावतं समसितं बुधसुन्दराङ्गम् कन्दर्पकोटिकमनीयविशिष्टशोभम् गोविन्दमादिपुरुषम् तमहं भजामि वनमाल्यवंसि रत्नाङ्गदं प्रणयकेलितलाविलासम् श्यामं त्रिभङ्गललितं नियतप्रकाशम् गोविन्दमादिपुरुषं तमहं भजामि सकलेन्द्रियवृत्तिमन्ति पश्यन्ति पान्ति कलयन्ति चिरं जगन्ति आनन्दचिन्मय सदुज्ज्वल विग्रहस्य गोविन्दमादिपुरुषं तमहं भजामि तमहं भजामि गोविन्दमादिपुरुषं तमहं भजामि गोविन्दमादिपुरुषं तमहं भजामि नवयौवनं च वेदेषु दुर्लभमदुर्लभम् आत्मभक्तो गोविन्दमादिपुरुषं तमहं भजामि पन्थास्तु कोटिशतवत्सरसम्प्रगम्य मुनिपुङ्गवानां सोऽप्यस्ति यत्प्रपदसिं विचिन्त्यतत्वे गोविन्दमादिपुरुषं तमहं भजामि एकोऽप्यसोरचयितुं जगदण्डकोटिं य शक्तिरस्ति जगदण्डचयाय दन्तः दण्डान्तरस्थ परमाणु चयान्तरस्थम् गोविन्दमादिपुरुषं तमहं भजामि यत्भावभावितधियो मनुजस्तथैव सम्प्राप्य रूपमहिमा सनयानभूषा सूक्तैरमेव निगम प्रथितैस्तुवन्ति गोविन्दमादिपुरुषं तमहं भजामि गोविन्दमादिपुरुषं तमहं भजामि गोविन्दमादिपुरुषं तमहं भजामि। अर्थादि विकार विशेष योगा संजायते नहीं तथा पृथगस्ति हेतो य संभूतां अपि तथा समुपेति कार्या गोविंदमादि पुरुषं तमहां भजामि दीपार्चिरेव हि दशांतरं अभ्युपेत्य दीपायते विव्रत हेतु समान धर्मा यस्ताद्रगेव हि च विष्णुतया विभाति व्यपरां समूर्तिम् गोविंदमादि पुरुषं तमहं भजामि यस्यैकनिश्वसित कालमथालम्ब्य जीवन्ति लोम विलज जगदण्डनाथा विष्णुर्महां स इह यस्य कला विशेषो गोविंदमादिपुरुषं तमहं भजामि गोविंदमादिपुरुषं तमहं भजामि गोविंदमादिपुरुषं तमहं कलेषु निजेषु तेज स्वीयं कियत् प्रकटयत्यपि तद्वदत्र ब्रह्माय एष जगदण्डविधानकर्ता गोविंदमादिपुरुषं तमहं भजामि पल्लवं युगं विनिधाय कुम्भ द्वन्द्वे प्रणाम समये सगणाधिराज विघ्नान् विहन्तुमलमस्य जगत् त्रयस्य गोविंदमादिपुरुषं तमहं भजामि कालस्तथात्ममनसीति जगत्त्रयानि यस्माद्भवन्ति विभवन्ति विशन्ति यं च गोविंदमादिपुरुषं तमहं भजामि यच्चक्षुरेष सविता सकल ग्रहाणां राजा समस्त सुरमूर्तिरशेष तेजा यस्याज्ञया भ्रमति संभृत कालचक्रो गोविंदमादिपुरुषं तमहं भजामि ब्रह्मादि कीट पतगा वधयश्च जीवा यद्दत्त मात्र विभव प्रकट प्रभावा गोविंदमादि पुरुष तमः भजामि यस्तन्द्र गोपमथवेन्द्र मात्स्वकर्म बन्धानुरूप फल भाजन मातनोति कर्माणि निर्दहति किन्तु च भक्ति भाजम् गोविन्दमादि पुरुष तमः भजामि काम सहज प्रणयादि भीति वात्सल्य मोह गुरु गौरव सेव्य भावे संचिन्त्य तस्य सदृशं तनुमा पुरेते गोविन्दमादि पुरुषं तमहं भजामि तमहं भजामि गोविन्दमादि पुरुषं तमहं भजामि गोविन्दमादि पुरुषं तमहं भजामि गोविन्दमादि पुरुषं तमहं भजामि श्रियकान्ताकान्तः परमपुरुषकल्पतरवो द्रुमा भूमिश्चिन्तामणि गणमयी तोयम् अमृतम् कथागानम् नाट्यम् गमनमपि वंसि प्रियसखी चिदानन्दम् ज्योति परमपि तत् आस्वाद्यमपि च स यत्र क्षीराब्धिः स्रवति सुरभिभ्यश्च सुमहान् निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः भजे श्वेतद्वीपम् तमहम् इह गोलोकम् इतियम् विदन्तस्ते सन्तः क्षिते विरलचारा कतिपये